एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षम् महालेखा परीक्षकः टंकमणि शर्मा शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य पञ्चसप्तति षट्सप्तत्यधिक द्विसहस्रतमार्थिक वर्षस्य महालेखा परीक्षकस्य वार्षिक प्रतिवेदनम् प्रस्तौत तदवसरे राष्ट्रपति भण्डारी अवदत् सुशासनम् संस्थापयितुम् पारदर्शिताम् अवलम्बितुम् अपव्ययम् नियम्य विकास निर्माणयोः कार्याणि समये एव सम्पादयितुम् च महालेखा परीक्षकेण विहितम् लेखा परीक्षणम् विपुलम् महत्वम् विवर्ति महालेखा परीक्षकस्य वार्षिक प्रतिवेदने राष्ट्रस्य विभिन्नानाम् निकायानाम् पञ्चसप्तति षट्सप्तत्यधिक द्विसहस्रतमार्थिक वर्षस्य तत्पूर्वस्य च लेखा परीक्षणे अनियमित व्ययेन सहितम् समाधातव्यम् वित्तम् षण् निखर्वाः चतुष्षष्टिः अब्जानी चतुश्चत्वारिंशत् कोटयश्चेति रूप्यकात्मकम् अस्तीति उल्लिखितम् वर्तते नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य आन्तरिक विवादम् समाधातुम् अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये गतदिने प्रधानमन्त्री निवासे बालवाटार स्थाने व्यमृष्टमस्ति अध्यक्षद्वयस्य मध्ये विहिते विमर्शने नेकपा दलस्य महासचिवः विष्णु पौडेलः स्थायी समितेः सदस्यः जनार्दन शर्मा च सहभागिनौ आस्ताम् दलस्य द्वितीय पंक्तेः नेतृभिः अध्यक्षद्वयस्य मध्ये सहमतिम् अन्विष्य दलैकतां सन्धर्तुम् बलसर्जनस्य अनन्तरम् स्थायिसमितेः उपवेशम् भूयो भूय स्थगितीकृत्य अध्यक्षद्वयस्य मध्ये विमर्शनम् विधीयमानमस्ति जलविप्लव भूस्खलनयोः जलमग्नतायाम् च निपतितान् जनान् उद्धर्तुम् दलपंक्तेः परिचालनाय नेकपा स्थायिसमितेः उपवेश सप्ताहस्य कृते स्थगितीकृत्य स्वाहुतो वर्तते प्रधानमन्त्रिणः केपी शर्मा ओलिनः स्विस कोषागारे वित्तीयाभिलेखन विवरणम् वर्तते इति निगद्य ग्लोबल वाच एनालाइसिस संस्थाम् उद्धृत्य प्रकाशितः समाचारः दायित्वविहीनः मिथ्या चास्तीति प्रधानमन्त्रिणः सचिवालयेन खण्डितो वर्तते प्रधानमन्त्रिणः संचार परामर्शदात्रा सूर्य थापा विदेन गतदिने विज्ञप्तिम् प्रकाश्य स्विस कोषागारे प्रधानमन्त्रिणः ओलिनः पञ्चपञ्चाशत् मिलियन परिमिता अमेरिकीय डलर मुद्राः सञ्चिताः सन्तीति सूचना शतप्रतिशतम् मिथ्या कपोलकल्पिता चास्तीति उक्तम् वर्तते वर्षाकालस्य सक्रियतायाः पश्चात् मासावधौ आराष्ट्रम् विभिन्नेषु क्षेत्रेषु दुरापन्नेन भूस्खलनेन सप्तनवति जनाः मृताः इति राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणम् ज्ञापयति भूस्खलने निपत्य अधुनावधि त्रिचत्वारिंशत् जनाः विलुप्ताः सन्तीति प्राधिकरणमेतत् ज्ञापयति अस्मिन् वर्षस्य भूस्खलनस्य अकल्पनीय घटनाभिः बहुशः सर्वसाधारणाः अम्रियन्त इति प्राधिकरणस्य प्रमुख कार्यकारी अनिल पोखरेलः अज्ञापयत् प्राधिकरणस्य अनुसारेण ज्येष्ठ मासस्य त्रिंशत् दिवसतः आषाढस्य एकत्रिंशत्तम दिवसम् यावत् भूस्खलनस्य कारणेन त्र्यशीतिर्जनाः आहताः सन्ति मासावधौ वज्रपातस्य कारणेन सप्तदश जनाः मृताश्च वर्तन्ते भूस्खलनेन पर्वत बजाङ सिन्धुपाल्चोक पाल्पा गुल्मी जाजरकोट तनहुं प्रवृत्ति जनपदेषु अधिक क्षतिः प्रापितेति प्राधिकरणमेतत् ज्ञापयति सौरमानानुसारेण सूर्योदक्षिणायनं अद्य आराष्ट्रम् श्रावण संक्रान्ति पर्व समायोज्यते सौरमानानुसारेण सूर्योदक्षिणायनम् एत्य कर्कट रेखायाः उपरि प्राप्नोतीति हेतोः दिवसोऽयम् कर्कट संक्रान्ति नाम्नापि प्रथितो विद्यते कृषिप्रधानदेशे नेपाले आषाढमासे विहितेन कृषिकर्मणा शान्तकृषकैः पङ्कजातम् प्रक्षाल्य स्वकीयैः बन्धुमित्रैः सह प्रमोदावहे वातावरणे अद्य भोजनम् भुज्यते आषाढमासस्य पङ्कस्य कारणेन सम्भाव्यात् रोगात् रक्षितुम् चर्मरुजो निराकरणस्य च उद्देश्येन पर्वेदम् आयोज्यमानम् वर्तते इति लोकविश्वासो अस्ति अद्य निम्ब जम्बीरा दाडीमा प्रवृत्ति फलानि समर्प्य कण्डारक नामकस्य राक्षसः पूजनात् चर्मरोगस्य प्रकोपात् मुक्तिः प्राप्यते इति विश्वासेन विविधम् वनस्पतिजातम् प्रज्वाल्य प्रतिगृहम् चतस्रिषु दिक्षु उल्मुखमाध्यमात् चर्मरोग प्रक्षेपण प्रचलनम् वर्तते कर्णाली प्रदेश सर्वकारेण श्रावण संक्रान्तेः अवसरे अद्य सार्वजनिकावकाशम् दातुम् निर्णीतम् वर्तते गतदिने षड् शतेन सप्तनवत्या च जनैः कोरोना संक्रमणात् स्वास्थ्य लाभ प्राप्तेः अनन्तरं नेपाले कोरोना मुक्तानाम् अद्यावधि संख्या 11,025 प्राप्ता अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः नेपाले अद्यावधि विभिन्नेभ्यः एकान्तवास केन्द्रेभ्यः 62.64% संक्रान्ताः जनाः कोरोना मुक्ताः सन्तीति अज्ञापयत्। एवमेव गतदिने 16 जनेषु कोरोना संक्रमणं पुष्टीभूतमस्ति। गतदिने रौतहट जनपदस्य 37 पुरूषस्य कोरोना संक्रमणात् मृत्युः पश्चात् नेपाले अद्यावधि कोरोना संक्रमणात् मृतकानां संख्या 49 प्राप्तास्तीति प्रवक्ता डाक्टर गौतमः अज्ञापयत्। बलात्कारस्य आरोपे कास्की जनपदस्य लामा पाटन वर्तिन सशस्त्र प्रहरी बलस्य सम्मर्दोपद्रव व्यवस्थापन शिक्षालयस्य प्रमुख प्रहरी वरिष्ठो परीक्षकश्च राजेन्द्र कुमार अधिकारी निगृहितो वर्तते। ह्यो दिवस सार्धद्विवादने कास्की प्रहरीणो नियन्त्रण कक्षे एकया महिलया आत्मनिविहितस्य बलात्कारस्य सम्बन्धे मौखिक निवेदनं प्रस्तुतम् आसीत्। कास्की जनपदीय प्रहरी प्रवक्ता प्रहरी नायब उपरीक्षकश्च सुभाष हमालः नियन्त्रण कक्षे घटनायाः विषये ज्ञापन प्राप्तेः अनुपदमेव कास्की जनपदस्य प्रहरिणः परिचाल्य प्रहरी वरिष्ठो परीक्षकः अधिकारी निगृहिता इति अज्ञापयत्। गृहमन्त्री रामबहादुर थापा भाषते जलविप्लव भूस्खलनाभ्यं प्रभावितानां जनानां उद्धार सहयोग वितरण पुनस्थापनानां कार्येषु कापि न्यूनता न विधीयते। झाँझरकोट जनपदात् प्रतिनिधित्वं कुर्वता वनमन्त्रिणा शक्तिबहादुर बस्नेत इत्यनेन सहितैः जनप्रतिनिधिभिः सह बीते गतदिवसीय मेलने गृहमन्त्री थापा एवं प्रतिबद्धतां व्यक्तवान्। मेलंची पेयजलायोजनायाः भूमिगत जलसरण्यः परीक्षणस्य क्रमे भूमिगत जलसरण्यः 17 भञ्जनात् परह्यो विलुप्तस्य जनद्वयस्य मध्ये एकः स्थपति सतीश गोइत मृतावस्थायां प्राप्तोऽस्ति। 25 स्थपते गोइत इत्यस्य शव ह्यो मेलंची नगरपालिकायाः 11 क्षेत्रस्य पालचोकी स्थाने प्राप्तोऽस्तीति मेलंची स्थानीय प्रहरी कार्यालयस्य प्रहरी निरीक्षक फलबहादुर तामाङ अज्ञापयत्। राजस्वानुसन्धान विभागेन करवञ्चनस्य आरोपे विभिन्नानां संस्थानां सञ्चालकैः व्यवसायीभिश्च सहितानां शरणां जनानां विरुद्धे न्यायिक प्रकरणं पञ्जीकारितं वर्तते। एतैः अब्जत्रयस्य 82 कोटीनां च रूप्यकाणां हानिवित्तस्य राजस्वं प्रवञ्चितम् अस्तीति आरोपो वर्तते। कारावासनं दण्डनं हानिवित्तं च अभियाच्य गतदिने पाटनवर्तिनी उच्चन्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते इति विभागस्य महानिर्देशकः दीर्घराज मैनाली अज्ञापयत्। त्रिभुवनान्तर राष्ट्रिय विमानस्थले गतदिने 12 अन्तर्राष्ट्रिय डैनानि विहितानि सन्ति। कोविड 19 महामार्याः कारणेन विभिन्नेषु राष्ट्रेषु असहायावस्थायां स्थितानां नेपालीनाम् उद्धाराय विहितस्य तृतीय चरणस्य आरक्षितो डयनस्य माध्यमेन ह्य 592 नेपालिनः स्वदेशं प्रत्यावृताः सन्ति इति समाचाराः।